आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी गुजरात राज्यस्य सूरतनगरे 18,000 कोटि रूप्यकाधिक मूल्यानां मार्ग विद्युतः अथ च औद्योगिक विकास परियोजनानां शुभारम्भं विहितवान्। सः आदौ हजीरा क्षेत्रं गत्वा औद्योगिकाधारभूत संरचना कार्याणां समीक्षां विहितवान्, सहैव जनसभामपि सम्बोधितवान्। अनन्तरं प्रधानमन्त्री दमन नगरं समागच्छत्, यत्र प्रायः 2,970 कोटि रूप्यक परिमितानां विविध विकास परियोजनानां उद्घाटनं शिलान्यासं च विहितवान्। अवधेयास्पदं वर्तते यत् एताभिः परियोजनाभिः क्षेत्रस्य विकासः, आजीविका निर्माणानि तथा जनसुविधानां वृद्धयः च भविष्यन्ति। सीबीएसई इति केन्द्रीय माध्यमिक शिक्षा परिषदा अंक सत्यापनार्थं सहैव पुनर्मूल्यांकनार्थं आवेदन प्रस्तुतेः अन्तिमा तिथिः जून मासस्य 7 दिनांक पर्यन्तं वर्धिता। सामाजिकान्तर्जालीय पटले एकेन सन्देशेन परिषदा प्रख्यापितं यत् छात्राः इदानीं रविवासरस्य मध्य रात्रिं यावत् स्व आवेदनानि प्रस्तोतुं शक्नुवन्ति। सीबीएसई परिषदा प्रोदीरितं यत् छात्रहितं मनसि निधाय आवेदन प्रक्रियां पूरयितुं छात्रेभ्यः अतिरिक्त समय प्रदानाय एषः निर्णयः स्वीकृतः। एतस्मात् पूर्वम् आवेदनस्य अन्तिमा तिथिः अस्य मासस्य 6 दिनांकं यावदासीत्। परिषदा सर्वेभ्यः योग्य छात्रेभ्यः परामृष्टं यत् ते निर्धारित समये एव स्व आवेदन प्रक्रियां सम्पादयन्तु। केन्द्रीय पेट्रोलियम तथा प्राकृतिक गैस मंत्री हरदीप सिंह पुरी अघोषयत् यत् अण्डमान द्वीप समूहस्य पूर्व समुद्रीय तटात् प्रायः 15 किलोमीटर दूरे श्री विजयपुरम त्रिक्षेत्रे प्राकृतिक गैस भण्डारः अन्विष्टः। एकस्मिन् सामाजिकान्तर्जालीय पटले एकेन सन्देशेन श्री पुरी प्रख्यापितवान् यत् एतत् अन्वेषणम् अण्डमान समुद्रस्य विशाल ऊर्जा क्षमतां पुनः प्रमाणीकरोति, सहैव अस्मिन् क्षेत्रे प्रचल्यमानस्य गवेषणाभियानस्य एकाम् अपरां सफलतां च सूचयति। सः अकथयत् यत् ऑयल इंडिया इति संस्था सम्प्रति गैस द्रव्यस्य संरचनां तथा च तस्य ऊष्मीयमानं मूल्यांकितुं गैस सैम्पलिंग इति प्रतिचयनस्य कार्यं करोति। अन्ताराष्ट्रिय पर्यावरण दिवसावसरे श्रीपुरी महोदयेन नवदिल्ल्यां फ्लेक्स इंधन वाहनेभ्यः E85 इंधनस्य शुभारम्भो विहितः। केन्द्रीय गृहमन्त्री अमित शाहः ह्यः अब्रवीत् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः आर्थिक परिष्काराणां लक्ष्यस्य अन्तर्गतं भारतस्य विकास यात्रा देशस्य आर्थिक समृद्धिम् अविरतं वर्धयति। अस्मिन् आर्थिक वर्षे पंजीकृतं 7.7% जीडीपी विकासं निर्दिश्य श्री शाहः प्रावोचत् यत् एषा उपलब्धिः गत 12 वर्षेषु भारतस्य अर्थव्यवस्थया सुदृढतां प्रकटयति। अथ च क्रिकेट क्रीडायां भारत अफगानिस्तान दलयोर्मध्ये स्पर्धा अद्य न्यू चण्डीगढ़स्य मुलानपुर स्थिते महाराजा यादवेन्द्र सिंह अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे आरप्स्यते। अस्यां स्पर्धायां शुभमन गिलः भारतीय दलस्य नेतृत्वं विधास्यति। क्रीडेयं भारतीय समयानुसारं प्रातः 9:30 आरप्स्यते। पुरुषाणाम् अण्डर 18 इति अष्टादश एशिया कप हॉकी प्रतियोगितायाः उपान्त्य स्पर्धायां भारतेन पाकिस्तान दलं 5-3 अन्तरालेन पराजितम्। अपरतः महिलानां अष्टादश एशिया कप प्रतियोगितायाः उपान्त्य स्पर्धायां चीन देशेन भारतीय दलं पराजितम्। इति वार्ताः।